अभद्रमत्य इन्द्रवन्त अग्नजोज्योतिर्भनन्त उषसोऽव्योष्टिषा महेद्या वा पृथिवी चेततामभोद्या देवानामव आवृणीमहे दिवस्पृथिव्योरव आवृणीमहे मात्रान् सिन्धोन् पर्वतान् शर्यणावतः अनागास्त्वम् शौर्यमुषा समीमहे भद्रम् सामस्वभानो अद्यावृणोतु नः द्यावा नो अद्य पृथिवी अनागसो महेत्रा अजेताम् सुमिताज मातरा उषा उच्छन्द्यमबाधता मघम् स्वस्त्या अग्निम् समिधानमेमहे इयम् न उस्रा प्रथमा सुदेव्यम् रेवत्सनिभ्यो रेवदेव्योच्छतो आरे मन्यम् दुर्विदत्रस्य धेमहि स्वस्त्या अग्निम् समिधानमेमहे प्रजास्य स्रदे सौर्यस्य रश्मिभिर्जो दर्भरम् ते रुषसोऽव्योष्टिष भद्रानो अद्य श्रवसेव्योच्छत स्वस्त्या अग्निम् समिधानमेमहे अनमेव उषस आचरन्तु न उदक्रजो अजहताञ्ज्योतिषा बृहत् आजक्षातामश्विनातो तु जम्रथम् स्वस्त्या अग्निम् समिधानमेमहे श्रेष्ठम् न अद्य समितरवरेण्यम् भागमासुभसहिरत्तथा असि राजाजनित्रेऽन्धिषणामुपब्रुवे स्वस्त्या अग्निम् समिधानमेमहे विपर्त्वमातद्रतस्य प्रवाचनम् देवानाल्यन्मनुष्या अमन्महि विश्वा इदुस्रास्पणुदे दिशौर्य स्वस्त्या अग्निम् समिधानमेमहे अद्वेषो अद्य बर्हिषस्तरे मणिग्राव्णायोगे मन्मनः साधयेमहे आदित्यानाम् शर्मणि स्थाभुरण्यसे स्वस्त्या अग्निम् समिधानमेमहे आनो बर्हिस्य धमादे बृहद्दिवि देवाम् ईळे सादजा सप्तहोत्रान् इन्द्रम् मित्रम् वरुणम् सातजे भगम् स्वस्त्या अग्निम् समिधानमेमहे तरादित्या आगता सर्वदा तजे वृधेनो यज्ञमवता सजोषसः बृहस्पतिम् पोषणमश्विना भगम् स्वस्त्या अग्निम् समिधानमेमहे तन्नो देवा यच्छत सुप्रवाचनम् छर्दिरादित्या सुभरन् रवायम् पश्वे तोकाजतनजाज जीवसे स्वस्त्या अग्निम् समिधानमेमहे विश्वे अद्य मरतो विश्व ऊते विश्वे भवन्तग्नजः समिद्धाः विश्वे नो देवा अवसागमन्तु विश्ववस्त्वद्रविणम् वाजो अस्मे यन्दे वासोपधवाजसा दौजन्त्राजध्वेजम् विप्रधात्यम् हाः यो वो गोपीथेन भजस्य वेददे स्यामदेववीतजेतुरासः